सहस्रशीर्षपुरुषसहस्रपादशभूमिं विश्वतो भृत्वा प्रत्यतिष्ठा दशाङ्गुलम् पुरुष एवेदकं सर्वं यत्भूतयश्च भव्यम्।